एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रिय स्वतन्त्र दलस्य सभापतिम् रवि लामिछानेविदम् अतिरिक्तानि दश दिनानि निग्रहणे संस्थाप्य अनुसन्धातुम् कास्की जनपद न्यायालयेन ह्य अनुमतिः प्रदत्तास्ति। सहकारी संस्थाया वित्त वञ्चनाभियोगे अस्यैव कार्तिकस्य द्वितीय दिवसे निगृहीतस्य लामिछानेविदस्य अस्यैव कार्तिकस्य पञ्चदश दिवसात् क्रियान्वयनत्वेन तृतीयवारं दश दिनानां निग्रहण समयावधि वर्धितोस्तीति जनपद न्यायालयस्य सूचनाधिकारी सूरज अधिकारी असूचयत। एतत्पूर्वं कार्तिकस्य चतुर्दशं दिवसं यावत् निग्रहण समयावधि निर्धारिता आसीत्। यमपञ्चक पर्वणः कारणेन न्यायालयस्य पीठतात् पञ्चक पर्वणः अवकाशस्य समाप्तिं मनु यः न्यायालये सभापतिः रवि प्रहरिणा उपस्थापितः आसीत्। जनपद न्यायाधीशस्य चन्द्रकान्त पौडेलस्य न्यायपीठेन निग्रहणे संस्थाप्य अतिरिक्तम् अनुसन्धातुम् अनुमतिः प्रदत्तेति न्यायालयस्य सूचनाधिकारी सूरज अधिकारी असूचयत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना ज्वरेण पीडनानन्तरं स्वस्य नियमित मेलनस्य कार्यक्रमः स्थगितीकृतो वर्तते। सामान्यतः ज्वरेण पीडनात् प्रधानमन्त्रिणा ह्यस्तनदिवसाय अत्यावश्यक कार्येण विना निर्धारितम् अन्य मेलनादिकं कार्यं त्यक्त्वा विश्रामः विधीयमानोऽस्तीति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितं वर्तते। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह जलवायु न्यायम् अभियाचते। इजिप्ट देशस्य कायरो नगरे ह्यायोजितं नगरीय जलवायु संकट विषयकं सत्रं सम्बोधयन् मन्त्री सिंह नेपालः जलवायु परिवर्तनस्य उच्च संकटे स्थिति विश्व समुदायम् असूचयत। नेपाल सदृश विकासोन्मुख राष्ट्रैः अत्यधिक न्यूनमात्रायां कार्बन वायोः उत्सर्जनं विधीयमानं सदपि जलवायोः परिवर्तनस्य प्रत्यक्ष प्रभावः अधिकः दृष्टोस्तीत्यतः अन्ताराष्ट्रियस्तरस्य जलवायुवित्ते सहज प्राप्तेः प्राविधिक सहयोगस्य च माध्यमेन एव जलवायु न्यायः सम्भविष्यतीति विषयं विश्व समुदायस्य समक्षम् उपप्रधान मन्त्री सिंह अन्वरुणात। असौ जलवायु परिवर्तनस्य प्रभावस्य रूपेण अतिवृष्टि अनावृष्टि असमय वर्षा जलविप्लव भूस्खलनानि हिमपतनम् हिमतालस्य विस्फोटनम् चेति विपज्जन्य घटना वर्धमाना सन्तीत्यतः प्रतिवर्ष लक्षशो मानवा प्रभाविता जायमाना सन्तीति अबोधयत। उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः राजस्वस्य संकलनाय अतिरिक्तं परिश्रमं विधातुं कर्मचारिणः निर्दिशति। अर्थमन्त्रालयस्य सचिवस्य विभागस्य प्रमुखाणां च उपवेशे अर्थमन्त्री पौडेलः ह्य राजस्वस्य संकलनाय विशेषेण प्रयतितुम् अन्तर्गतस्य कर्मचारिणः कार्येऽस्मिन् अतिरिक्तं प्रवर्तयितुं च निरदिशत। सामान्यावस्थायाः कार्येण परिणामोऽपि सामान्य एव अधिगमिष्यति इति चर्चयन् अर्थमन्त्री पौडेलः गतवर्षस्य तुलनायां प्रतिशतं त्रयोदशभिः अंकैः सम्भूतायां राजस्ववृद्धौ सन्तोषं कृत्वा स्थितेः अवस्था नास्तीति अगदत्। संविधानं राष्ट्रस्य हितं च विचार्य विधेयरनुसारेण राजस्वस्य संकलनं विधेयमिति चर्चयन् अर्थमन्त्री पौडेलः समस्यां तत्कालं सम्बोधयितुं निरदिशत। तदवसरे अर्थमन्त्री पौडेलः राजस्वस्य संकलनाय नीतिगतं संरचनागतं प्रक्रियागतं च सुधारं कर्तुं नेतृत्वेन सदा सहयोगो विधीयते इति समाश्वासयत्। राष्ट्रिय सूचनायोगस्य प्रमुखायुक्तपदे नेपाल पत्रकार महासंघस्य पूर्व सभापति डाक्टर सुरेश प्रसाद आचार्य परामृष्टो वर्तते। सभामुखस्य देवराज घिमिरेविदस्य अध्यक्षतायाम् उपविष्टेन समिते उपवेशेन प्रमुखायुक्तपदे आचार्य सूचनायुक्तपदे प्रेस चौतारी संस्थाया पूर्वाध्यक्ष गगनविष्ट पूर्व सचिव दुर्गा भण्डारी च परामृष्टा सन्तीति सभामुखस्य घिमिरेविदस्य संचार परामर्शदाता शेखर अधिकारी सूचयत। प्रतिनिधिसभाया सभामुखस्य अध्यक्षत्वे संचार सूचना प्रविधि मन्त्रिणः नेपाल पत्रकार महासंघस्य अध्यक्षस्य च सदस्यत्वे च त्रिसदस्यीय परामर्शन समित्या प्रमुख सूचनायुक्तस्य आयुक्तस्य च परामर्शनस्य प्रावधानम् वर्तते। भारत भ्रमणे विद्यमानस्य जलस्रोत विकास ऊर्जो जलस्रोत विकास मन्त्रिणा दीपक खड्का विदस्य तत्रत्य जलशक्ति मन्त्रिणा सीआर पाटिल इत्यनेन सह ह्य नयाँ दिल्ली स्थाने मेलवार्ता सम्भूतास्ति। मेलने एतयोर्मध्ये पञ्चेश्वर बहुद्देशीया योजनायाः यथाशीघ्र क्रियान्वयनस्य जल विप्लव नियन्त्रणम् मानव संसाधन विकासश्चेति पारस्परिक हिताभिरुच्योश्च विविधेषु विषयेषु विमर्शनम् अवदिति मन्त्रिणः खड्गा विदस्य नैज सचिवालयेन ज्ञापितम् वर्तते। छठपर्वणः द्वितीये दिने अद्य व्रतालव खरणाविदेः पूर्वकार्याय संलग्नाः वर्तन्ते। पर्वणः प्रथमदिने ह्य स्नानभक्षणम् सम्पाद्य व्रतालवः अद्य पञ्चम्याम् तिथौ आदिनम् निराहारम् स्थित्वा रात्रौ गुडमिश्रितम् क्षीरान्नम् निर्माय कुलदेवतायै छठीदेव्यै च भोगम् समर्प्य तदेव भुञ्जन्ति। छठपर्वणः मुख्यम् दिनम् कार्तिक शुक्ल षष्ठीतिथि स्ववर्तते। स्व अस्तमिताय सूर्याय अर्घ्यदानानन्तरम् परश्वः सप्तम्याम् तिथौ उदीयमानाय सूर्याय अर्घ्यप्रदानानन्तरम् छठपर्व समाप्तिम् एति। नेकपा माओवादी केन्द्रस्य कीर्तिपुर नगर समित्या कीर्तिपुर नगरपालिकायाः उपनिर्वाचन चने नगर प्रमुख पदस्य प्रत्याशिनी प्राध्यापकम् डाक्टर शिवशरण महर्जन इत्यमुम् निश्चेतुम् निर्णीतमस्ति। एवमेव कीर्तिपुर नगरपालिकायाः प्रथमवडाध्यक्षस्य प्रत्याशिनी अष्टमान महर्जन इत्यमुम् चतुर्थवडाक्षेत्रस्य अध्यक्षस्य अध्यक्षे स्थपतिम् नारायण विष्ट इत्यमुम् च निश्चेतुम् निर्णीतमस्ति। कीर्तिपुर नगरपालिकायाम् आगामिनः मार्ग शीर्ष मासस्य षोडशे दिवसे उपनिर्वाचनम् सम्पत्स्यमानम् वर्तते। नेकपा एकीकृत समाजवादी दलेन दलस्य सर्वस्तरीय समितिषु एकम् पदम् एका व्यक्तिश्चेति प्रणाली अनुसृत्य कार्यविभाजनम् विधीयते। संगठनम् अतिरिक्तम् सुदृढीकरणम् विधाय गतिशीलम् विधातुम् दलस्य सर्वस्तरस्य नेतृणाम् व्यवस्थापनाय च एकम् पदम् एका व्यक्ति चेति अवधारणायाः क्रियान्वयनम् विध्यमानमस्तीति सचिवः सोमप्रसाद पाण्डेयः अज्ञापयत्। सर्लाही जनपदस्य ईश्वरपुर नगरपालिकायाः वयलवासस्थाने कारयानेन सह पुष्करिण्याम् निमज्य विलुप्तस्य जनद्वयस्य शवौ ह्य जलविप्लव प्लवन निपुणैः जनैः प्राप्तौ स्तः। वयलवान बजारस्थानात् महोत्तरी जनपदम् प्रति प्रस्थीयमानम् कारयानम् यः दुर्घटितम् सत कारयान चालकेन सह जनद्वयम् ईश्वरपुर पालिकायाः द्वितीयवडा क्षेत्रस्य मियाखारेवर्तिन्याम् पुष्करिण्याम् निमग्नाः आसन्। तेषु एक महोत्तरी जनपदस्य गोशला पालिकायाः द्वितीयवडा क्षेत्रस्य जनक यादवः जलप्लवनेन आत्मानम् रक्षितुम् सफलोऽभूत्। अन्य जनद्वयस्य गौशला नगरपालिकायाः दशमवडा क्षेत्रस्य आसन्नाष्टात्रिंशद्वर्षीयस्य सुरेश महतो विदस्य सोनम ग्रामपालिकायाः अष्टमवडा क्षेत्रस्य सप्तत्रिंशद्वर्षीयस्य रमाकान्त ठाकुरस्य च शवौ पुष्करिण्याम् प्राप्तौ स्तः। बारा जनपदस्य नितनपुरस्थाने टाटा सुमोयानस्य दुर्घटनायाम् एको बालकः मृता अन्य अष्टौ जना हताः वर्तन्ते। मृतकः भारतस्य बिहार राज्यस्य नवीन कुमार शाहस्य चतुर्वर्षीय पुत्र अनुमोल कुमार शाह स्थिति सिमरा स्थानीय प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षक चिरञ्जीवी दाहालः असूचयत्। काष्ठमण्डपात् वीरगंजस्थानम् प्रति प्रस्थीयमानम् टाटा सुमोयानम् जितपुर सीमरूप महानगरपालिकायाः दशमवडा क्षेत्रस्य नितनपुरे अनियन्त्रितम् सद् दुर्घटितमिति स्थानीय प्रहरी कार्यालयेन ज्ञापितम् वर्तते। आहतानाम् जनानाम् बयोदा मेडिसिटी चिकित्सालये उपचार जायमानो स्थिति प्रहरिणा सूचितमस्ति।